ॐ नमो भगवत्यै आर्यप्रज्ञापारमितायै आर्य अवलोकितेश्वरो बोधिसत्वो गंभीरां प्रज्ञापारमिताचर्यां चरमाणो व्यवलोकयति स्म। पञ्चस्कन्धास्तांश्च स्वभावशून्यान् पश्यति स्म। इह शारिपुत्ररूपं शून्यता शून्यतैव रूपं रूपान्न पृथक् शून्यता शून्यतायान्न पृथक् रूपम्। यद्रूपं सा शून्यता या शून्यता तद्रूपम्। एवम् एव वेदना संज्ञा संस्कारविज्ञानम्। इहं शारिपुत्र सर्वधर्माः शून्यता लक्षणा अनुत्पन्ना अनिरुद्धा अमला अविमला अनुना अपरिपूर्णाः। तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानं न चक्षुः श्रोत्रघ्राणजिह्वाकायमनांसि न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः न चक्षुर्न धातुर्यावन् न मनो विज्ञानधातुः न अविद्या न अविद्याक्षयो यावन् न जरामरणं न जरामरणक्षयो न दुःखः समुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्न अप्राप्तिः। तस्माच्छारिपुत्र अप्राप्तित्वाद् बोधिसत्वस्य प्रज्ञापारमिताम् आश्रित्य विरहत्यचित्तावरणः चित्तावरणनास्तित्वाद् अत्रस्तो विपर्यास अतिक्रांतो निष्ठानिर्वाणप्राप्तः त्रय्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमिताम् आश्रित्या अनुत्तराम् सम्यक् सम्बोधिम् अभिसम्बुद्धाः तस्माज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्या मन्त्रो अनुत्तरमन्त्रो समसममन्त्रः सर्वदुःखप्रशमनः सत्यम् अमित्यत्वात् प्रज्ञापारमितायम् उक्तो मन्त्रः तद्यथा गते गते पारगते पारसङ्गते बोधिस्वाहा इति प्रज्ञापारमिता हृदयं समाप्तम्।